ओम अथ श्री लक्ष्मी कवचम अथ श्री लक्ष्मी कवच प्रारंभः ईश्वर उवाच अथ वक्षे महेशानि कवचम सर्वकामदम् यस्य विज्ञान मात्रेण भवेत् साक्षात् सदाशिवः नार्चनं तस्य देवेसी मंत्रमात्रं जपेन्नराः स भवेत् पार्वती पुत्रः सर्वशास्त्रे सुपारगः विद्यार्थिना सदा सेव्या विशेषे विष्णुवल्लभा अस्याश्चतुरक्षरे विष्णुवनिता रूपायाः कवचस्य श्रीभगवान् शिवरिशिरनुष्टुप छन्दो वाग्भवी देवता वाग्भवं बीजं लज्जा शक्ति रमाकीलकं कामबीजात्मकं कवचं मम सुपाण्डित्य कवित्व सर्वसिद्धि समृद्धये जपे विनियोगाः एंकारी मस्तके पातु वाग्भवी सर्वसिद्धिदा रीं पातु चक्षुषोर्मध्ये चक्षुर्युग्मे च शांकरी जिह्वायां मुखवृत्ते च कर्णयोर्गण्डयोर्नसि ओष्ठाधरी दन्तपङ्क्तौ तालुमूले हनौ पुनः पातु मां विष्णुवनिता लक्ष्मीः श्रीवर्णरूपिणी कर्णयुग्मे भुजद्वन्द्वे स्तनद्वन्द्वे च पार्वती हृदये मणिबन्धे च ग्रीवायां पार्श्वयोः पुनः सर्वांगे पातु कामेशी महादेवी समुन्नतिः व्युष्टिः पातु महामाया उत्कृष्टिः सर्वदावतु सन्धिं पातु सदा देवी सर्वत्र शम्भुवल्लभा वाग्भवी सर्वदा पातु मां हरिगेहिनी रमा पातु सदा देवी पातु माया स्वराट् स्वयं सर्वांगे पातु मां लक्ष्मीर् विष्णु माया सुरेश्वरी विजया पातु भवने जया पातु सदा मम शिवदूती सदा पातु सुंदरी पातु सर्वदा भैरवी पातु सर्वत्र भैरुंडा सर्वदा वतु त्वरिता पातु मां नित्य मोग्रतारा सदा वतु पातु मां कालिका नित्यं कालरात्रिः सदा वतु नवदुर्गा सदा पातु कामाख्या सर्वदा वतु योगिन्यः सर्वदा पातु मुद्रः पातु सदा मम मातरः पातु देव्यश्च चक्रस्था योगिनी गणाः सर्वत्र सर्वकार्येषु सर्वकर्मसु सर्वदा पातु मां देवदेवी च लक्ष्मीः सर्वसमृद्धिदा इति ते कथितं दिव्यं कवचं सर्वसिद्धये यत्र तत्र न वक्तव्यं यदि छेदात्मनोहितं षठाय भक्तिहीनाय निन्दकाय महेश्वरी न्यूनांगे अतिरिक्तांगे दर्शयेन्न कदाचन नास्तवं दर्शयेत् दिव्यं सन्दर्शे शिवः भवेत् कुलीनाय महोत्स्राय दुर्गा भक्ति पराय च वैष्णवाय विशुद्धाय दद्यात् कवचमुत्तमं निज शिष्याय शांताय धनिने ज्ञानिने तथा दद्यात् कवचमित्युक्तं सर्वतंत्र समन्वितं विलिख्य कवचं दिव्यं स्वयंभो कुसुमैः स्वशुक्रैः परशुक्रैश्च नाना गंध समन्वितैः गोरोचना कुंकुमेन रक्त चंदन केन वा सुतिथौ शुभ योगे वा श्रवणायां रविर्दिने अश्विन्यां कृतिकायां वा फलगुण्यां वा मघासु च पूर्वभाद्रपदा योगे स्वात्यां मंगलवासरे विलिखेत् प्रपठेत् स्तोत्रं शुभ योगे सुरालये आयुष्मत्प्रीति योगे च ब्रह्मयोगे विशेषतः इन्द्रयोगे शुभयोगे शुक्रयोगे तथैव च कौलवे बालवे चैव वणिजे चैव सत्तमाः शून्यागारे शमशानेव विजने च विशेषतः कुमारीं पूजयित्वादौ यजेद्देवीं सनातनीं मत्स्यमांसैः शाकसूपः पूजयेत् परदेवतां कृताद्यैः सोपकरणैः उपसूपैर्विशेषतः ब्राह्मणान् भोजयित्वादौ प्रीणयेत् परमेश्वरीं बहुना किमिहोक्तेन कृतेत्वेवं दिनात्रयं तदाधरेन्महारक्षां शङ्करेणाभिभासितम् मारणद्वेषणादीनि लभते नात्र संशयः स भवेत् पार्वतीपुत्रः सर्वशास्त्रविशारदः गुरुर्देवो हरः साक्षात् पत्नी तस्य हरः प्रिया अभेदेन भजेद्यस्तु तस्य सिद्धिरदूरतः सर्वदेवमयीं देवीं सर्वमन्त्रमयीं तथा सुभक्त्या पूजयेद् यस्तु स भवेत् कमलाप्रियं रक्तपुष्पैस्तथा गन्धैर्वस्त्रालङ्करणैस्तथा भक्त्या यः पूजयेद् देवीं लभते परमां गतिं नारी वा पुरुषो वापि यः पठेत् कवचं शुभं मन्त्रसिद्धिः कार्यसिद्धिर्लभते नात्र संशयाः पठति य इह मर्त्यो नित्यमात्रान्तरात्मा जपफलमनुमेयं लप्स्यते यद्विधेयं स भवति पदमुच्चैः सम्पदां पादनम्राः क्षितिपमुकुटलक्ष्मिर्लक्षणानां चिराय इति श्री विश्वसारतन्त्रोक्तं लक्ष्मीकवचम् इति श्रीलक्ष्मीकवचं सम्पूर्णम्।